संतुष्टः सततं योगी
यतात्मा दृढनिश्चयः
मय्यर्पितमनो बुद्धिः
यो मद्भक्तः स मे प्रियः।